సర్వేభ్యః అద్య విభక్తి వర్గే అష్టమః పాఠః అక్టోబర్ మాసస్య ఏకత్రింశత్ దినాంకః. రామో రాజమణి సదా విజయతే రామం రమేశం భజే రామేణమభిహతా నిశాచరతమో రామాయ తస్మై నమః. రామాన్నాస్తి పరాయణం పరతరం రామస్య దాసోస్మ్యహం. రామే చిత్తలయ సదా భవతు మే భో రామ మాముద్ధర. గురురేవ గతి గురుమేవ భజే గురుమైవ తహాస్మి నమో గురవే. న గురోః పరమం శిశురస్మి గురోః మతిరస్తి గురౌ మమ పాహి గురో. ప్రథమా విభక్తి ద్వితీయా విభక్తిశ్చ హీతా. అద్య తృతీయా విభక్తేః ఆరంభం కుర్మః. తతః పూర్వం కించిత్ పునరావర్తనం. ఇటోపి ప్రాక్ ఐ జస్ట్ వాంట్ టు టెల్ యూ ఆల్ దట్ there are some power problems at my end, so sudden power outages, so there might be a couple of short breaks when the audio is lost or my connection is lost. So if that happens, please just wait for a few minutes. I'll just connect right back. So with that, we'll start. పునరావర్తనం కింకిం అధీతం ఇది విభక్తి కా నామ విభక్తి ఇది అస్మాభిః జ్ఞాతం. విభక్తి నామ ప్రత్యయ. విభక్తి ఇస్ అ సెట్ ఆఫ్ ప్రత్యయస్ విచ్ ఆర్ యాడెడ్ టు ప్రాతిపదిక. పదం ద్విధం భవతి సంస్కృతే. సుబంతం తింగంతం. సుబంతం అథవా నామపదం, తింగంతం అథవా క్రియాపదం. ప్రతిపదం భాగద్వయం భవతి ప్రకృతి తథా ప్రత్యయ. సో ఆల్మోస్ట్ ఆల్ వర్డ్స్ ఇన్ సంస్కృతం 99% ఆఫ్ ది వర్డ్స్ క్యాన్ బి బ్రోకన్ డౌన్ ఇన్ టు దీస్ టూ పార్ట్స్. సో దేర్ ఇస్ అ ప్రకృతి అండ్ దేర్ ఇస్ అ ప్రత్యయ. తత్ర సుబంతేషు అథవా నామపదేషు ప్రకృతి ప్రాతిపదికం, ప్రత్యయ సుప్ ప్రత్యయ. తింగంతేషు తు ప్రకృతి ధాతు, ప్రత్యయా తిం ప్రత్యయా. యథా రామ ఇది ప్రాతిపదికం, తత్ర సుప్ ప్రత్యయానాం యోజనేన రామ రామౌ రామాః రామం రామౌ రామాన్ ఇత్యాది బహూని రూపాణి సిద్ధ్యంతి. ఏవం పఠ ఇది ధాతుః, తత్ర తిం ప్రత్యయానాం యోజనేన పఠతి పఠతః పఠంతి పఠతి పఠతః పఠతః ఇత్యాదీని రూపాణి సిద్ధ్యంతి. తత్ర ఏవం పదే ప్రకృతి ప్రత్యయ. తత్ర ప్రత్యయ యథా జ్ఞాతః సుప్ తిం ఏతేషాం ప్రత్యయానామేవ విభక్తి ఇది సంజ్ఞా. సో విభక్తి ఇస్ యాక్చువల్లీ అ కామన్ నేమ్ విచ్ ఇస్ గివెన్ టు బోత్ సుప్ అండ్ తిం ప్రత్యయ, బట్ వీ యూజ్ ద వర్డ్ విభక్తి స్పెసిఫికలీ ఫార్ ద సుప్ ప్రత్యయ. సో వెన్ యూ స్పీక్ ఆఫ్ విభక్తి, వీ ఆర్ యాక్చువల్లీ టాకింగ్ అబౌట్ ద సుప్ ప్రత్యయ. విభక్తి ప్రత్యయాః ఏకవింశతిః 21. తత్ర సప్తధా విభక్తీనాం విభాగః అస్తి. ప్రథమా, ద్వితీయా, తృతీయా, చతుర్థీ, పంచమీ, షష్ఠీ, సప్తమీ ఇది. ప్రతివిభక్తి త్రయః ప్రత్యయాః, ఏకవచనం, ద్వివచనం, బహువచనం. ఏవం ప్రథమా విభక్తిః ఇత్యక్తే త్రయః ప్రత్యయాః. సో ప్రథమా విభక్తి రెఫర్స్ టు ద త్రీ ప్రత్యయస్ సు ఔత్యస్ విచ్ ఆర్ రెస్పెక్టివ్లీ ఇన్ సింగ్యులర్, డ్యూయల్ అండ్ ప్లూరల్. So it is these pratyayas that we refer to together as vibhakti. So prathama vibhakti is three pratyayas. Evam dvitiya vibhakti hi yukte trayah pratyayah. So ete vibhakti pratyayah pratipadikebhyah yojyante. So they are added to pratipadika. So you have one pratipadika, say bala. Tasmad prathama vibhakti pratyayah, dvitiya vibhakti pratyayah, evam pratyayah yojyante. Kimartham vibhaktinam yojanam? vibhaktya ki uchyate. So what are the means that the vibhakti conveys in addition to that bala? So you have one object of a boy. So when you are adding a different vibhakti pratyayas to this particular word, what are the different meanings conveyed? Pramukhataha chaturdha prayojanam bhavati vibhaktehe. Ekam prathamam bhavati vastu nirdeshaha. So just indicating an object. So we add prathama vibhakti, balaha. Simply means a boy. So vrikshaha, trees. So vastu nirdeshaha, prathama vibhaktya kriyate. Kriyaya saha sambandham dyotayanti vibhaktayaha. Yatha balam ahvaya. So call a boy. A boy is the object in calling. So balaya dehi. So give to the boy. So the boy is a recipient for the action of giving. Or bale preetihi. So there is affection towards the boy. So boy is the vishaya of preeti. So it refers to different, the vibhakti conveys different relations with the kriya or action. So kriya saha sambandham bodhayati vibhaktihi. So vastu nirdeshartham vibhaktihi kriyaya saha sambandham bodhayitum. This kriyaya saha sambandhaha eva tarakam. So if you have heard of taraka, that is nothing but the relation of a particular padartha to kriya. Padarthena saha sambandhaha. So relation to other padarthas other than action. For example, balasya pustakam. So there it indicates that the book belongs to the boy. So balasya pita, so father of the boy. So it is conveying, the Shashti Vibhakti is conveying the relation of bala to the pita or pustakam or whatever. So anyena padarthena sambandham bodhayati vibhakti. Chaturtham asti padasya athava padena saha sambandham. So to indicate the presence or to indicate its association with a particular pada. Say, balam paditaha mitrani tishthanti. So there are friends standing around the boy. So here the balam, the dvitiya vibhakti as we have seen, is because of the word paditaha. Not because of any meaning, but because of that particular word. So if you use any other word giving the same meaning, you will not have this vibhakti. So the dvitiya vibhakti is specifically because of that word, what we call the upapada vibhakti. So evam chaturdha vibhaktehe prayojanani asmabhihi drishtani. Tatrado prathama vibhaktihi. Prathama vibhaktehe tredha prayojanam ishyate. Vastu nirdeshe prathama vibhaktihi upayujyate. Yatha sahabalaha, eshaha, vrikshaha, etat phalam ityadi. Kartravasakat prathama vibhakti bhavati. So actually these two are not different. I mean, they are going deep into grammar, but it is just for our understanding that I am saying this. Prathama vibhakti does not specifically convey the karta. However, we do see prathama vibhakti on kartrapada in the normal usage. Say, balaha gachyati. Tatra balaha karta. Aham pathami. So aham is the karta. Karma pratyayanam prayoge. The karma vasaka is used in prathama vibhakti. Pathaha pathitaha. The lesson was read. Geetam shrutam. The song was heard. Karyam karaniyam. The work must be performed. So all these are objects. So karma vasaka adapi prathama vibhakti hi drishyate. Tataha sambodhana prathama vibhakti hi. Sambodhana prathama vibhakti hi iti vastutaha prathama vibhakti hi eva. Yatohi pratyayaha te eva. They are the same pratyaya. Only the ekavachana form gets a modification in some cases. So the difference between in forms between prathama and sambodhana prathama, if any, is only in ekavachana. So divachane bahuvachane va kadapi vyatyayaha na bhavati. Ekavachane kadachit bhavati, kadachit na bhavati. So sambodhana prathama vibhakteh upayogaha sambodhane, to address somebody. Tataha dvitiya vibhaktihi api adhita. Dvitiya vibhakteh pramukhaha upayogaha bhavati karma padasya bodhanaya. Patham pathati, phalam khadati, shalam gachati, एवं कर्मफलम् द्वितीया विभक्त्या बोध्यते। तत्रैव द्विकर्मक प्रयोगाः अपि अस्माभिः दृष्टाः। केषाञ्चन धातूनां प्रयोगे कर्मद्वयं भवति। पृच्छति, गुरुं प्रश्नं पृच्छति। शालां स्यूतं नयति। धनिकं भिक्षां प्रार्थयति। एवं केषाञ्चन धातूनां, सो यु हाव् द पृच्छति, वदति, बोधयति, प्रार्थयति एण्ड् नयति। So mainly these five and along with the Padhyaya Pada, Tesham Prayoge Karma Dvayam Bhavati. Te Vikarmaka Prayogaha Api Asmaghiya Dhitaha. Tataha Upapada Dvitiya. Yatra Nirdishtam Padam Adhari Krajya Vibhakti Pravaktate. So the Vibhakti is added based on the presence of a particular word. Paritaha. ग्रामं परितः वनमस्ति। रामं विना गतिः नास्ति। मार्गम् उभयतः वृक्षाः सन्ति। एवं कानिचन पदानि दृष्टानि, तेषां पदानां प्रयोगे तत्सम्बन्धात् पदात् द्वितीया विभक्तिः भवति। एनी क्वेश्चन्स् रिगार्डिङ्ग् एनी पायिण्ट्स् कवर्ड् इन् प्रीवियस् क्लास्? अद्य तृतीया विभक्तिं पश्यामः। खादति इति एका क्रिया। तत्र क्रियायाः सम्बन्धे बहवः पदार्थाः भवितुम् अर्हन्ति। खादति, कः खादति इति प्रश्नः। सो क्वश्चन् रिलेटेड् टु द डूअर् आर् द एजेण्ट् आफ् क्वश्चन्। कः खादति? एषः बालः। बालः खादति। किं खादति? अन्नम्। अन्नं खादति, बालः अन्नं खादति। एतावत्तु अस्माभिः ज्ञायते। केन खादति? खादने किम् उपकरणम्? सो वाट् इस् द इन्स्ट्रुमेण्ट् दट् इस् रिक्वैर्ड् फार् हिम् टु ईट्? सो वाट् इस् ईटिङ्ग्? यु पुट् इट् इन् टु युर् मौत्। So to put it into your mouth, you require some instrument. So there is Bala and there is Anna. But still, action will not happen. The boy, there is something else which has to be present for him to achieve the action of eating. So there is a boy and there is Anna in front of him. So action will not happen. So there is something else which is required for him to perform the action. So that is the question regarding to the instrument. What does he use to eat this object, aranna? Say, samataha. So, samasena khadati. Balaha samasena annam khadati. So, he eats rice with a spoon. Satra samasaha karanam. Samasa is the instrument of action. So, dashati. इति एका क्रिया। दशति तु बैट्। कः दशति? सर्पः। सर्पः दशति। किं दशति? बालिका। बालिकां दशति। केन दशति? सो वाट् इस् द इन्स्ट्रुमेण्ट् आफ् द सर्पेण्ट् इन् बैटिङ्ग्? दन्तः। दन्तेन दशति। सर्पः दन्तेन बालिकां दशति। अत्र दन्तः करणम्। तरति। तरति इस् अ वर्ब् विच् इस् यूस्ड् इन् टु सेन्सेस्। वन् इस् टु स्विम् अण्ड् अदर् इस् टु क्रास्। सो वेन् यु आर् यूसिङ्ग् इट् इन् द सेन्स् आफ् स्विमिङ्ग्, इट् इस् अकर्मक, यत् देर् इस् नो कर्मपद। बट् इफ् इट् इस् यूस्ड् इन् सेन्स् आफ् क्रासिङ्ग्, इट् इस् सकर्मक, देर् ईस् अ कर्मपद। ता तरति, बालिका। बालिका तरति। किं तरति? एषा नदी। नदीं तरति। केन तरति? नौका। नौकया तरति। बालिका नौकया नदीं तरति। अत्र नौका तरणस्य करणम्। लिखति इति अपरा क्रिया। कः लिखति बालः लिखति किं लिखति पत्रं पत्रं लिखति केन लिखति लेखनी लेखन्या लिखति बालः लेखन्या पत्रं लिखति In all these cases, we see a third karaka. So, there is the one who performs the action, there is the object of action, and there is also the instrument. And the instrument in Sanskrita is termed karanam. Kriyayaha vishaye kena. So, kena is nothing but tritiya. Iti prashnasya uttaram bhavati karanavasakam padam. Paniniyam sutramasti. Sadhakatamam karanam. Sadhakam, that which helps to achieve. So the instrument. So the most useful instrument for achieving an action is called karana. Karana matakata tritiya vibhakti bhavati. So the karana matakata is most frequently used in tritiya vibhakti. So, idaniyam asmabhihi yadrishtam. Se, chamasena khadati, dantena dashati, lekhanya likhati, naukaya charati. Ete sarvepi, tritiya vibhakte hai prayogaha. Abhyasaha, tritiya vibhakti rupani vaktavyani.
हस्तेन लिखति बालः हस्तेन
हस्तेन रूपेण अलं
बालिका पादेन पादाभ्यां चलति
जस्ट् द फार्म् सो पादः पादेन एकवचनरूपेण अलं पादः पादेन
दण्डेन ताडयति
दण्डः दण्डेन हस्तेन पादेन दण्डेन लक्ष्मी
नेत्रेण
नेत्रेण नेत्रं
नेत्रेण पुस्तकेन
पुस्तकं पुस्तकेन
पुस्तकेन मुखं मुखेन
मुखं मुखेन यथा दृश्यते पुल्लिङ्गशब्दानां तथा नपुंसकलिङ्गशब्दानां तृतीयाविभक्तौ समानं रूपम् सो आल्वेज़ ऐ मीन् इफ् इट् इस् अकारान्त द पुल्लिङ्ग एण्ड् नपुंसकलिङ्ग दे हेव् द सेम् फार्म् इन् तृतीयाविभक्त So actually, Tritiya Vibhakti onwards, Sarvatra, Tritiya, Chaturthi, Panchami, Shashti, Saptami, Sarvatra, Akaranta Pullinganam, Akaranta Napunsakalinganam, Samanam Rupam Bhavati. Jnana Prasuna.
Tulaya.
Tulaya. Tula.
Tulaya.
नौकया
नौकया
छुरिकया
छुरिकया तुला तुलया नौका नौकया छुरिका छुरिकया राधिका राधिका
कुञ्चिकया
कुञ्चिकया
शिलया
घण्टया घण्टया कुञ्चिका कुञ्चिकया शिला शिलया घण्टा घण्टया सो आकारान्तस्त्रीलिङ्गानाम् अन्ते अया तुलया नौकया छुरिकया कुञ्चिकया शिलया घण्टया సుజాత.
లేఖని, లేఖన్య, అంకని, అంకన్య, కత్తరి, కత్తర్య.
కత్తర్య. సో ఈకారాంత స్త్రీలింగాన లేఖన్య, అంకన్య, కత్తర్య.
ద్రోణ్య,
ద్రోణ్య,
ద్రవ్య,
ద్రవ్య,
ఘట్య,
ఘట్య. తత్ర యా ఇది ప్రత్యయ శ్రూయతే. లేఖన్యా, అంకన్యా, కర్తవ్యా, ద్రోణ్య, ద్రవ్య, ఘట్య ఇత్యేతాని తృతీయా విభక్తౌ రూపాణి. ఇదానీ దశాభ్యాస కేన గచ్చతి, అత ఏతత్ కరణం, తస్య తృతీయా విభక్తి రూపం వక్తవ్యం.
రథేన గచ్చతి,
రథేన గచ్చతి.
విమానేన గచ్చతి,
విమానేన గచ్చతి.
నౌకేన గచ్చతి,
నౌకా. తస్య తృతీయ
విభక్తం
నౌకయా గచ్చతి. సుజాత దర్శనం.
యా నమస్కారం.
శకటం,
శకటం, శకటేన గచ్చతి,
శకటేన గచ్చతి. ద్విచక్రికయా, ద్విచక్రికయా గచ్చతి,
ద్విచక్రికయా గచ్చతి. ఆటో యానేన గచ్చతి,
ఆటో యానేన గచ్చతి, ఆర్ త్రిచక్రికయా గచ్చతి.
ఓకే,
దేర్ ఇస్ ద థింగ్ యు క్యాన్, దేర్ ఆర్ బోత్ వేస్ ఆర్ ఇన్ యూస్. సో యూస్ లైక్ సే ఆటో యానం, కార్ యానం ఇత్యాది ఉపయుజ్యతే, తేషాం ఉపయోగం అపి అస్తి. దేర్ ఆర్ ఆల్సో వర్డ్స్ విచ్ ఆర్ డిరైవ్డ్ యూజింగ్ ద ప్రాపర్టీ. సో ద్విచక్రిక, సో ద్విచక్రిక ఆర్ ద్విచక్రయానం, ద్విచక్రయానేన గచ్చతి అథవా ద్విచక్రికయా గచ్చతి.
లోకయానేన గచ్చతి,
లోకయానేన గచ్చతి, లోకయానం బస్.
వోల్వో యానేన గచ్చతి,
వోల్వో యానేన, సుఖయానేన గచ్చతి. లక్షరీ బస్ రెఫర్ టు సుఖ యానం.
రేలయానేన గచ్చతి,
రేలయానేన గచ్చతి. ధూమశకటం వాస్ ద ఒరిజినల్ నేమ్ విచ్ వాస్ గివెన్ టు ట్రైన్ బికాస్ ఐ మీన్ ద స్టీమ్ ఇంజిన్. సో ధూమశకటేన గచ్చతి. ఎలక్ట్రికల్ ట్రైన్, సో ఇట్ ఇస్ రెఫర్ టు అస్ విద్యుత్ శకటం. సో వెన్ అస్ యు కెన్ సీ సమ్ సో సంస్కృతం బికాస్ ఆఫ్ ఇట్స్ పవర్ ఆఫ్ జనరేటింగ్ వర్డ్స్ యూ క్యాన్ జనరేట్, ఐ మీన్ మెయిన్లీ బేస్డ్ ఆన్ ద ప్రాపర్టీస్ ఆఫ్ అ న్యూ ఆబ్జెక్ట్ యూ క్యాన్ జనరేట్ మోర్ అండ్ మోర్ వర్డ్స్. ಕ್ಷೇಪಣಿ ಕ್ಷೇಪಣ್ಯಾಪಣಿ ಆಲ್ವೇಸ್ ದ ವೆಹಿಕಲ್ ಆರ್ ಯೂಶ್ವಲಿ ಇನ್ ಸಿಆರ್ ಭಕ್ತಿ ಬಿಕಾಸ್ ದ ವೆಹಿಕಲ್ ಇಸ್ ದ ಇನ್ಸ್ಟ್ರೂಮೆಂಟ್ ಆಫ್ ಗೋಯಿಂಗ್. ಅತ್ರ ಏತಾನಿ ಪದಾನಿ ಉಪಯುಜ್ಯ ವಾಕ್ಯಂ ರಚನೀಯಂ. ಬಾಲಃ ಹಸ್ತೇನ ಶಿಲಾಂ ಕ್ಷಿಪತಿ. ಸೊ ಬಾಲಃ ಹಸ್ತೇನ ಶಿಲಾಂ ಕ್ಷಿಪತಿ. ಸೊ ವಾಟ್ ವಿಲ್ ಡೂ ನೌ ಇಸ್ ವಿಲ್ ಆಲ್ಸೋ ಬಂದ್ರೆ ಆನ್ ದ ವರ್ಬ್. ಸೊ ಲೆಟ್ ಅಸ್ ಯೂಸ್ ದ ಭೂತಕಾಲ. ಭೂತಕಾಲೇ ಕ್ತವತು ಬಾಲಃ ಹಸ್ತೇನ ಶಿಲಾಂ ಕ್ಷಿಪ್ತವಾನ್ ಕ್ಷಿಪತಿ ಕ್ಷಿಪ್ತವಾನ್ ಹಿ ಥ್ರೀ. ಏವಂ ಉಭಯಥ ವಾಕ್ಯದ್ವಯಂ ವಕ್ತವ್ಯಂ. ಏಕಂ ವಾಕ್ಯಂ ವರ್ತಮಾನ ಕಾಲೇ, ದ್ವಿತೀಯ ಭೂತಕಾಲೇ.
ಆರಕ್ಷಕಃ ದಂಡೇನ ಚೋರಂ ತಾಡಿತವಾನ್.
ವರ್ತಮಾನಕಾಲೆ
ಆರಕ್ಷಕಃ ದಂಡೇನ ಚೋರಂ
ತಾಡಯತಿ. ಆರಕ್ಷಕಃ ದಂಡೇನ ಚೋರಂ ತಾಡಯತಿ. ಆರಕ್ಷಕಃ ದಂಡೇನ ಚೋರಂ ತಾಡಿತವಾನ್.
ಜನಾಃ ಜನಾಃ ನೌಕಯಾ ಸಮುದ್ರಂ ತರಂತಿ. ಜನಾಃ ನೌಕಯಾ ಸಮುದ್ರಂ ತರಿತವಂತಃ
ತೀರ್ಣವಂತಃ. ಸ್ಪೆಷಲ್ ವರ್ಬ್. ಸೊ ತೀರ್ಣವಂತಃ
ತೀರ್ಣವಂತಃ
ಸಮುದ್ರ ತೀರ್ಣವಂತಃ. ಸೊ ದಟ್ ಇಸ್ ಹೌ ವಿ ಗೆಟ್ ದ ಉತ್ತೀರ್ಣ. ಉತ್ತೀರ್ಣ ಇಸ್ ಪಾಸ್. ಸೊ ಹಿ ಹೂ ಹ್ಯಾಸ್ ಕ್ರಾಸ್ಡ್ ಆಕ್ಚುಲಿ ದ ಎಕ್ಸಾಮಿನೇಷನ್ ಇಸ್ ಉತ್ತೀರ್ಣ. ಸೊ ತೀರ್ಣವಂತ. ಮಹಾದೇವನ್
ವ್ಯಾಧ ಬಾಣೇನ ಪರಿಣಂ ಮಾರಯತಿ. ವ್ಯಾಧ ಬಾಣೇನ ಹರಿಣಂ ಮಾರಿತವಾನ್.
ಮಾರಿತವಾನ್ ವ್ಯಾಧ ಬಾಣೇನ ಹರಿಣಂ ಮಾರಯತಿ ಮಾರಿತವಾನ್. ಸರಿ.
ಸಮಸೇನ ಭೋಜನಂ ಖಾದತಿ. ಸಾ ಚಮಸೇನ ಭೋಜನಂ ಖಾದಿತವತಿ.
ಖಾದಿತವತಿ. ಸೊ ಆಸ್ ವಿ ನೋ ದ ತವತು ಪ್ರತ್ಯಯಾಂತ ಶಬ್ದಾನಾಂ ಲಿಂಗ ಭೇದಃ ಭವತಿ. ಸೊ ಪುಲ್ಲಿಂಗೇ ತವಾನ್, ಸ್ತ್ರೀಲಿಂಗೇ ತವತಿ. ಸೊ ಖಾದಿತವಾನ್ ಖಾದಿತವತಿ, ತಾಡಿತವಾನ್ ತಾಡಿತವತಿ, ತೀರ್ಣವಾನ್ ತೀರ್ಣವತಿ ಇತಿ ಲಿಂಗಂ ಅನುಸೃತ್ಯ ವಿದ್ಯತೆ. ಶಿವರಾಮ್
ತ್ವಂ ದ್ವಿಚಕ್ರಿಕಯಾ ಶಾಲಾಂ ಗಮಿ ತ್ವಂ ದ್ವಿಚಕ್ರಿಕಯಾ ಶಾಲಾಂ ಆಗಮಿಷ್ಯತಿ.
ಆಗಚ್ಛಸಿ.
ಆಗಚ್ಛತಿ. ಆಗಚ್ಛತಿ.
ಆಗಚ್ಛಸಿ.
ತ್ವಂ ತ್ವಂ ಆಗಚ್ಛಸಿ. ಹಾ ತ್ವಂ
ತ್ವಂ ದ್ವಿಚಕ್ರಿಕಯಾ ಶಾಲಾಂ
ಮಧ್ಯಮ ಪುರುಷಃ.
ಆಂ
ಆಗಚ್ಛಸಿ. ತ್ವಂ ದ್ವಿಚಕ್ರಿಕಯಾ ಶಾಲಾಂ ಆಗತವಾನ್.
ತ್ವಂ ದ್ವಿಚಕ್ರಿಕಯಾ
ಶಾಲಾಂ ಆಗತವಾನ್.
ಆಗತವಾನ್ ಆರ್ ಆಗತವಾನ್
ಡಿಪೆಂಡಿಂಗ್
ಆನ್ ದ
ಲಿಂಗ. ते लेखन्या पाठं लिखितवन्तः लेखन्याः पाठं लिखितवन्तः
ते लेखन्या पाठं लिखितवन्तः
रामः बाणान् बाणेन बाणेन रावणं हतवान्
वर्तमानकाले
हन्ति
रामः बाणेन रावणं हन्ति रामः बाणेन रावणं हतवान्
वयं विमाने वयं विमानेन अमेरिकां अगमन्
गतवन्तः वयं विमानेन अमेरिकां
गतवन्तः
वर्तमानकाले गच्छति गच्छामः वयं विमानेन अमेरिकां गच्छामः वयं विमानेन अमेरिकां गतवन्तः सुमा
बालिका कुञ्चिकया द्वारं उद्घाटयति बालिका कुञ्चिकया द्वारं उद्घाटितवती आपणिकाः तुलया शाकाः तुलन्ति
द्वितीया विभक्त
ओ सारि शाकाः खलु
शाकाः प्रथमा विभक्तौ
शाकान्
शाकान् तोलयन्ति
शाकान् तोलयन्ति
तोलयन्ति
आपणिकाः तुलया शाकान् तूलितवन्तः
शाकशब्दः पुल्लिङ्गे अपि अस्ति नपुंसकलिङ्गे अपि अस्ति पुल्लिङ्गे शाकान् नपुंसकलिङ्गे शाकानि आपणिकाः तुलया शाकानि तोलयन्ति तोलितवन्तः
Can you hear me?
Yeah.
Kautikah. Kartarya. Vastram. Kartavantaha.
Kartitavan.
Kartitavan. Kautikah. Kartarya. वस्त्रं करोति
கர்த்தயதி. கர்த்தயதி இஸ் டு கட். சோ சௌச்சிகா, சௌச்சிகா இஸ் எ டெய்லர். சோ சௌச்சிகா கர்த்தர்யா வஸ்திரம் கர்த்தயதி. சௌச்சிகா கர்த்தர்யா வஸ்திரம் கர்த்திதவான்.
What is the meaning of Saushika?
Tailor. A tailor.
Oh, tailor, okay.
Yeah, it is derived from Suchi. Suchi is to thread. So it is to sew. He who sews with a needle is Saushika. It's a tailor. So Kartai is scissors. So, Eta Sarvam, Tutiya is Bhaktaya Prayogaha. Karana Vatakim, Tutiya is Bhaktaya. So, anyeshu vachaneshu tritiya vibhaktehe rupani pashyamaha. Hastena hastabhyam hastaihi. Dandena dandabhyam dandaihi. Netrena netrabhyam netraihi. Kunchikaya kunchikabhyam kunchikabhihi. Lekhanya lekhanibhyam लेखनीभिः. तो द्विवचने बहु सुलभं. भ्याम् इत्यस्य योजनं सर्वेषां पदानां, हस्ताभ्यां दण्डाभ्यां विमानाभ्यां नेत्राभ्यां तरणाभ्याम् इत्यादि, कुञ्चिकाभ्यां लेखनीभ्यां घण्टाभ्यां तुलाभ्यां सर्वत्र भ्याम् इत्यस्य. बहुवचने स्वभिः अथवा ऐः. सो फार् पुल्लिङ्ग एण्ड् नपुंसकलिङ्ग इव द ऐः. हस्तैः दण्डैः नेत्रैः बाणैः इत्यादि, कुञ्चिकाभिः लेखनीभिः नौकाभिः तुलाभिः दर्वीभिः द्रोणीभिः अन्यत्र भिः इति श्रूयते. एतानि भिन्नेषु वचनेषु तृतीयाविभक्तेः रूपाणि. इदानीम् अस्य हस्त इत्यस्य तृतीयाविभक्तिः पुनः धातोः भूतकालस्य रूपं, वर्तमानकालस्य भूतकालस्य उभयोः रूपम्. अर्थात् हस्ताभ्यां लिखति, हस्ताभ्यां लिखितवान्, हस्ताभ्यां लिखितवती. एवं अदर्स् वाण्ट् टु ट्रै, दोस् हू हव् नॉट ट्राइड सो फार्.
हरि ओम्. हरि ओम्. हस्ताभ्यां लिखामि, हस्ताभ्यां लिखितवान्, पादाभ्यां धावामि, पादाभ्यां धावितवान्, नेत्राभ्यां पश्यामि, नेत्राभ्यां दृष्टवान्.
The person who have not volunteered so far, if you would like to try, please do. Paul, sorry.
Hello.
Yes. Sorry, I said the first word. Let me give it to your hand here.
Okay. Karina, okay. So,
the vartamana, the active word.
Prasabhyam Shrunoti.
Shrunoti.
Shrunoti. Kartabhyam Shruvantaha. Shruvantaha.
Shruta.
श्रुतवान्
दन्तैः दंशन्ति दशन्तैः दशन्ति दशन्ति नास्ति
दन्तैः यदि बहुवचनम् अपेक्षितं तर्हि दशन्ति बट् यू केन् स्टिल् से दशति दन्तैः दशति
दन्तैः दशति दन्तैः दंशितवान्
दष्टवान्
दष्टवान् ओ
दन्तैः दन्तैः दष्टवान्
दन्तैः दष्टवान् अङ्गुलीभ्यः गणयन्ति
गणयति
अङ्गुलीभिः गणयति अङ्गुलीभिः गणितवान्
गणितवान् अङ्गुलीभिः गणयति अङ्गुलीभिः गणितवान् न श्रूयते शारदा भगिनी न श्रूयते सुरेन्द्र
नखभिः छेदितवान्
नखैः
नखैः छेदितवान्
वर्तमानकाले
नखैः छेदन्ति
छेदयति नखैः छेदयति नखैः छेदितवान्
छेदितवान् कुञ्चिकाभिः उद्घाटितवान् कुञ्चिकाभिः उद्घाटयति पाशैः बन्धयति पाशैः बन्धितवान्
पाशैः बन्धयति बन्धितवान् So there is also the bandhayati, it is easier to use the tense gana. You can also use the baddhavan baddhanati. So that is the baddhanati is a ninth gana. So baddhanati, baddhavan. Those are also.
Baddhanati, baddhavan. Droni bihi. Droni bihi. Neetayati. नयति द्रोणीभिः नयति द्रोणीभिः नीतवान्
नीतवान् द्रोणीभिः नयति द्रोणीभिः नीतवान् इति तृतीयाविभक्तेः प्रयोगः सो वी सीन् इन्स्टेन्सेस् आफ् यूसेज् आफ् तृतीयाविभक्ति एस् करण द इन्स्ट्रुमेण्ट् अन्यः अपि प्रयोगः अस्ति भाववाचकेभ्यः तृतीय भावः नाम इमोशन् हर्षेण वदति एक्साम्पल् सो बालः सन्तोषेण मोदकं खादितवान् सो द बाय् एट् स्वीट् वित् हेपिनेस् सो आर् हेपिली सो सन्तोषेण बालिका दुःखेन रोदनं कृतवती So the girl cried sadly or with sadness. Aham kashtena karyam samapitavan. So I finished or completed the work with difficulty. So eta santoshaha dukkham kashtam. Eta drishanam bhavavachakanam prayoge. So when we are using emotions like this, we have tritiya vibhakti for that word which indicates the emotion.
भूते
भूतकाले गतवान् सन्तोषेण गच्छति गतवान् आगतवती तथा दुःखेन आगच्छति तथा दुःखेन आगतवती
तेन कृतवान् ते कृतवन्तः कष्टेन कुलुतः कुर्वन्ति
ते कष्टेन कुर्वन्ति ते कष्टेन कृतवन्तः
ताः भयेन रुदन्ति ताः भयेन रुदितवान् रुदितवत्यः
रुदितवत्यः ताः भयेन रुदितवत्यः सो इन् द भूतकाल गतवान् गतवन्तः गतवती गतवत्यः कृतवान् कृतवन्तः कृतवती कृतवत्यः सो रुदितवान् रुदितवन्तः रुदितवती रुदितवत्यः ताः भयेन रुदितवत्यः ராமானுஜன்.
தௌ த்வராய
த்வரயா
த்வரயா கமிஷ்யதௌ. தௌ த்வரயா கமிதவந்தௌ கதவந்தௌ.
வர்த்தமானே கச்சதி
கச்சதஹ.
தௌ த்வரயா கச்சதஹ. தௌ த்வரயா கதவந்தௌ.
தே கோபேன தாடயதஹ. தே கோபேன தாடிதவந்தௌ.
வெனஸ்தே த்விவசன விச்லிங்க
தத் தே தானி நபும்சகலிங்க.
So, Gatavan, Gatavantau, Gatavantaha, Gatavati, Gatavatyau, Gatavatyah, Taditavan, Taditavantau, Taditavantaha, Taditavati, Taditavatyau, Taditavatyah. So, Ruditavan is haste. So, very quickly, or hastily. So, bhaya is, you know, I think fierce. Kopa is anger. So, Ruditavan is cried. So, Taha Bhayena Ruditavatyaha, they cried with fear. So, meaning fear. The other sentences, anybody wants to read? So the next one, Venkateshwar. Hariyam, I cannot hear you speak. Mahadevan.
மோகனஹ ஜாகரூகதயா கச்சதி. மோகனஹ ஜாகரூகதயா கதவான்.
ஜாகரூகதயா கச்சதி. ஜாகரூகதயா கதவான். ஜாகரூகதா இஸ் கேர்ஃபுல்லி. சோ மோகன் வெண்ட் கேர்ஃபுல்லி.
ராதா லஜ்ஜயா தாவதி. ராதா லஜ்ஜயா தாவிதவதி.
So ran in, you know, lajja is shame or shyness. So ran away shy. Shy, S-H-Y. Shy is lajja, shyness. Lakshmi.
Gauri asuya.
Asuyaya.
Asuyaya வச்சதி.
வக்தி.
அக வக்தி.
வக்தி அது மோர் காமன் இஸ் வச்சதி. தே ஆர் டிஃபரண்ட் வெர்ப்ஸ் பட் யூ கேன் சே வததி.
வததி கௌரி அசூயையா உக்தவதி.
உக்தவதி. ஹா, சோ அசூயையா வததி, அசூயையா உக்தவதி. They are not the same verbs. Remember that vadati is from a different verb, uktavati is from a different verb. But yeah, meaning is the same.
Balaha anandena पीतवान् बालः आनन्देन पिबति
बालः आनन्देन पिबति पिबति दधातु इस्पा पिबति पीतवान् Somebody asked the meaning of Twara. Twara is haste, hastily. So Asuya is jealousy. Ananda is happiness. Suma?
Uddaha. खेदेन पश्यति वृद्धः खेदेन दृष्टवान्
खेदेन पश्यति खेदेन दृष्टवान् खेद इस् द सेम् अस् दुःख सैड्लि सो हि सॉ सैड्लि
छात्राः एकाग्रतया शृण्वन्ति छात्राः एकाग्रतया श्रुतवन्तः
एकाग्रतया शृण्वन्ति सो लिसन् वित् कान्सन्ट्रेशन् एकाग्रतया श्रुतवन्तः सो दे लिसन् वित् कान्सन्ट्रेशन् सो एते सर्वे भाववचकाः सन्तोषः दुःखं कष्टं भयं त्वरा कोपः जागरूकता लज्जा असूया आनन्दः खेदः एकाग्रता सो एतादृशानां भाववाचकानामपि तृतीया विभक्तिः भवति सो ऐ सीन् टु इन्स्टेन्सेस् आफ् तृतीया विभक्ति टुडे सो वन् इस् तृतीया विभक्ति फार् करण द इन्स्ट्रुमेण्ट् एण्ड् द सेकेण्ड् इस् तृतीया विभक्ति फार् भाववाचक सो अग्रिमवर्गे तृतीया विभक्तेः अन्यान् प्रयोगान् पश्यामः सो देर् आर् मेनि मोर् केसेस् वेर् Tritiya Vibhakti is used. So, so now we will do a bit of Shabda Parayana. So remember, as we go on to the different Vibhaktis, it is very, very important to have the Shabda Rupas in mind. I cannot consciously, I mean the conscious one is there. So when you will say, you don't know, you can start with say Ramaha Ramo Ramaha and go on to say Ramaya Ramabhyam Ramayasaha. But the easier way would be to do this, repeatedly do the Parayana so that the forms come to you without having to think about them. Okay? So that is the purpose of this Ratana. So it is important to understand, but once you understand, even when you understand, you will find difficulty in using the words unless the forms are, you know, inside your mind. So for that, the Ratana will definitely be very helpful. So you keep repeating them. So someday, I mean, it will come naturally. You know the Vibhakti. You know which Vibhakti to use and you know what is the meaning in which it is used. But still, if you do not know the forms, you cannot use the word. Okay? So this is also a very important part of learning the Vibhakti. So this is why I finished a bit early today. So let us read the Shabdas. Okay? So, people want Sujata, Shankar. Okay, one second. Just one moment. So can we do a, you know, like Shabda? So like Rama, can you try say Hara Shabda?
Hara Shabda? Akarantaha, Pulindaha, Hara Shabdaha. हरः हरौ हराः ईहर ईहरौ ईहराः हरं हरौ हरान् हरेण हराभ्यां हरीः हराय हराभ्यां हरेभ्यः हरान्य हराभ्यां हरेभ्यः हरन्य हरयोः हराणां हरे हरयोः हरेषु
मीनाक्षी
क्षमा
क्षमा
सः
समा अकार समाशब्दः समयो समास्ति
सखी सख्यौ सख्या सखी सख्यौ सखी सख्या सखीभ्यां सखीभिः सख्यैः सखीभ्यां सखीभ्यः सख्याः रक्षो लक्षीणां सख्यां रक्षो लक्षीषु
सकारान्तः नपुंसकलिङ्गः परशब्दः वनशब्दः वनं वने वनानि हे वन हे वने हे वनानि वनं वने वनानि वनेन वनाभ्यां वने वनाय वनाभ्यां वनेभ्य वनात् वनाभ्यां वनेभ्य वनस्य वनयोः वनानां वने वनयोः वनेषु
सकारान्तपुल्लिङ्गः
तच्छब्दः सः तु तच्छब्दः अथवा त्यज् शब्दः
न न तद्देव त्यज् इस् वेरि रेर् तिनीर् तद्
सकारान्तपुल्लिङ्गः तच्छब्दः सः तौ दे तं तौ काल् तेन काभ्यान्तैः तस्मै काभ्यान्तेभ्यः तस्मात् काभ्यान्तेभ्यः तस्य तयोगतेषां तस्मिन् तयोगतेषु
दकारान्तः
श्रीलिङ्गः तद् शब्दः सा ते ताः सां ते ताः तया ताभ्यां ताभिः तस्मै ताभ्यां ताभ्यः तस्यै ताभ्यां ताभ्यः तस्याः ताभ्यां ताभ्यः तस्याः तयोः तासां तस्मां तयोः ताशु
तस्यां तयोः ताशु
सकारान्तः नपुंसकलिङ्गः तच्छब्दः तत्सेतानि तेन ताभ्यां तैः तस्मै ताभ्यां तेभ्यः तस्मात् ताभ्यां तेभ्यः तस्य तयोः तेषां तस्मिन् तयोः तेः
सकारान्तः पुत्रः एतत् शब्दः एषः एतौ एते एतम् एनम् एतौ एनौ एतान् एनान् एतेन एनेन एताभ्याम् एतैः एतस्मै एताभ्याम् एतेभ्यः एतस्मात् एताभ्याम् एतेभ्यः एतस्य एतयोः एनयोः एतेषाम् एतस्मिन् एतयोः एनयोः एतेषु दकारान्त स्त्रीलिङ्गः एतत् शब्दः एषा एते एताः एताम् एनाम् एते एने एताः एनाः एतया एताभ्याम् एताभिः एतस्यै एताभ्याम् एताभ्यः एतस्याः एताभ्याम् एताभ्यः एतस्याः एतयोः एनयोः एतास्मान् एतासाम् एतस्याम् एतयोः एनयोः एतासु
श्रूयते शुभम् नमस्ते
श्रूयते वा
श्रूयते
नपुंसकलिङ्गः एतत् शब्दः एतत् एते एतानि एतत् एनम् एते एने एतानि एनानि एतेन एनेन एताभ्याम् एतैः एतस्मै एताभ्याम् एतेभ्यः एतस्मात् एताभ्याम् एतेभ्यः एतस्य एतयोः एनयोः एतेषाम् एतस्मिन् एतयोः एनयोः एतेषु
त्वां
युवां
युवान्तः
सोरि दकारान्तः त्रिषु त्रिलिङ्गेषु समान युष्मद्शब्दः त्वं युवां यूयम् त्वां त्वा युवां वां युष्मन् वः त्वया युवाभ्यां युष्माभिः तुभ्यं ते युवाभ्यां वां युष्मभ्यं वः त्वत् युवाभ्यां युष्मत् तव ते युवयोः वां युष्माकं वः त्वयि युवयोः युष्मासु
हरि ओम् दकारान्तः त्रिषु लिङ्गेषु समानः अस्मत् शब्दः अहम् आवां वयम् माम् मा आवां नौ अस्मान् नः मया आवाभ्याम् अस्माभिः मह्यम् मे आवाभ्याम् नौ अस्मभ्यम् नः मत् आवाभ्याम् अस्मत् मम मे आवयोः नौ अस्माकं नः मयि आवयोः अस्मासु
मकारान्तः पुल्लिङ्गः किं शब्दः कः कौ हे कं कौ कान् तेन काभ्यां तैः कस्मै काभ्यां केभ्यः कस्मात् काभ्यां केभ्यः कस्य तयोः केषां कस्मिन् तयोः केषु
मकारान्तः स्त्रीलिङ्गः किं शब्दः सा के काः ताम् के काः कया काभ्याम् काभिः कस्यै काभ्याम् काभ्यः कस्याः काभ्याम् काभ्यः कस्याः तयोः कासाम् कस्याम् तयोः कासु
कारन्तः नपुंसकलिङ्गः किं किं चे कानि किं चे कानि केन काम् काभ्यां तैः कस्मै काभ्यां तेभ्यः कस्मात् काभ्यां तेभ्यः कस्य तयोः केषां कस्मिन् तयोः केषु
धन्यवादः तकारान्तः पुल्लिङ्गः भवत् शब्दः भवान् भवन्तौ भवन्तः हे भवन् हे भवन्तौ हे भवन्तः भवन्तं भवन्तौ भवतः भवता भवद्भ्यां भवद्भिः भवते भवद्भ्यां भवद्भः भवद्भः भवतः भवद्भ्यः भवतः भवद्भ्यां भवद्भ्यः भवतः भवतोः भवतां भवति भवतोः भवत्सु.
Anybody else for the last one? Those who have not. Vijay Lakshmi. I cannot hear it because the voice broke a lot. Bhavatyah, bhavatyoh, bhavatinam. Bhavatyam. Bhavatyoh, bhavatishu. There are two questions. Yes. Any other questions you can answer? What is tyad and how is it different from tyad shabda sevishaye kena prashtam? So you have tyad very similar to the tad shabda. Sayeva arthaha api tyad iti. Syaha tau tyau tye tyam tyau tyan ityadi upani bhavanti. So it is used in the same sense but very rarely used, especially in literature. It's prayoga is found in the Vedic literature sometimes. It is used as syaha, yau, ke, etc. And there is no syad shabda. So there is only syad. It is syad, tad, yad, etad. So it is in the list of sarvanamas. And Aparaha Krishna has seen upapada vibhakti. Some words are limited to a particular vibhakti only, whereas in some words, more than one vibhakti. So, I mean, we will see them along the way. Like, as I said, say there is a word like vina, which can be used with ditiya, tritiya, or panchami. So, within the different vibhaktis, we will see those. So, it is not possible to give an exhaustive list of all upapada vibhaktis, because they are huge in number and not all of them are frequently used, but I'll try to cover all the commonly used words. So we did not include the yad shabda, yes. So yaha yau ye, if you know kaha kauke, it is the same. I mean, yad is on the same line as kaha kauke. So it is yaha yau ye and so on. Or even like the tad shabda, you have yad, so instead of saha you have yaha, so everything else is the same. Yaha yau ye, yam yau ya, yena yabhyam ye, etc. For all three lingas. One more question. What is the average time frame for rasnam for students? I'm sorry, I didn't understand your question. Maybe you can ask orally.
I wanted to know whether this ratanam, does it take 3 to 6 months or how long if you do it on a daily basis?
No, especially this set, if you do it daily, like I would say not even a month you should be able to, because as it happens, if you don't do it consciously, subconsciously the pattern does get registered. There is a pattern to all these words. So I would say, especially for this set of words, it shouldn't even take a month. If you do it daily, regularly. Yeah. Less than
thank you.
Yeah.
question?
Yeah, how many times should we be doing this?
Yes.
Daily, 10, 20, like tables, huh?
I will say, yeah, it depends on how want or how desperate you are to get it. Always, the timing, is, I mean, the more you do, the more quicker you get it. But, I mean, I recommend at least once a day. I mean, if you spend 10 minutes a day, then it's enough for me. I'm a very relaxed, so that should be.
Madam, in the Tritiya Vibhakti section, mostly the words were being used with a karayati form, causal, like ganayati, vartayati, all those things. I mean, very few words were directly as a verb. Is there any special reason?
Okay, when you hear that aya, there are two cases. One is what you call the causal. There are also dhatus of the tenth gana which naturally take that aya. Say chorayati is to steal, not to make somebody steal. Similarly, ganayati is to count, not to make somebody count. Okay. So there are two. The pratyaya is called nich. Okay, so nich is of two kinds. One is called the original nich for all dhatus of the tenth gana. Naturally, we have the nich where it is the plain sense of the dhatu. Similarly, for like pathati, there is ganayati, there is kathayati, chorayati. They are all not causes. So there is also the causal for all dhatu. Say pathati, pathayati, gachati, gamayati, etc.
Yeah, so the dhatus were of the tenth conjugation, is it?
Yes, because, I mean, say, if you see the dhatus, there are 10 ganas of dhatus. Of those, the first and the tenth gana are the most easy because they are the most regular. So when I give examples, I consciously try to use either the first gana or the tenth gana. Say for example, I gave a dhatu of badhu. So to tai, there are two dhatus. One is in the ninth gana where the forms will be something like badhnati, badhni, taha, badhanti. Which is a regular not. But at the same time, if you use the tenth gana, it is much easier to know bandhayati, bandhayataha, bandhayanti.
Correct.
So that was the only reason why I used the tenth gana. In the beginning stages, it is very easy to know the 1, 4, 6, 10. Those are the regular. I wouldn't say regular. I mean, the other ganas are also regular, but these are the most common types of.
Yeah. Okay. Thanks.
Presentation.
Can you give a common list of list of the commonly used verbs in past tense, future tense, and present tense?
Yes, we can do that. Like I can give a list, but maybe some of you can also take it up. Say, make a list of the common words. So it will be some good job for you. What you're asking for is like the commonly used list of verbs and their forms in Bhuta, Bhavishya, Vartamana. So maybe some of you can take it up. You can come up with a common verb. Say, if you go through the notes of the past few classes, you will get the list which we have been using. In addition, if you see them, so you can make a table and try to fill up those forms so that it can be an easy reference. We can, if anybody of you can take the initiative, you can just do a Google Drive or somewhere a shared document so that other people can also fill up. So with collaboration, it can be easily you can come up with a list. So that list could be used for easy reference for anybody. So if you first just come up with the list of dhatus which are commonly used, and then some columns, say Vartamana Kala and Bhuta and Bhavishya. So the list can be, with so many students, it can be very easily filled up in no time. And they will be ready. So, yes. Thank you, Sujata Vagini. She said that you try to do that. If you just put me an email, I can give you the list of people who are in the class so that it can be shared with everybody. And then collaboratively, maybe the list can be built up. So I'll stop here. And this class will continue with Tritiya Vibhakti. Ramo Rajamani Sada Vijayate Ramam Rameshyam Bhaje रामेनाभिहता निशाचरचमो रामाय तस्मै नमः रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं रामे चित्तलयः सदा भवतु मे ಭೋ ರಾಮ ಮಾಮುದ್ಧರ ಗುರುರೇವ ಗತಿ ಗುರುಮೇವ ಭಜೆ ಗುರುಣೈವ ಸಹಾಸ್ಮಿ ನಮೋ ಗುರವೇ ನ ಗುರೋಃ ಪರಮಂ ಶಿಶುರಸ್ಮಿ ಗುರೋಃ ಮತಿರಸ್ತಿ ಗುರೌ ಮಮ ಪಾಹಿ ಗುರೋಃ. So somebody says they have a list. So if you have any such material, it can be useful for learning. Please share it with the group so that we can make one folder, so maybe one Google Drive folder, where different people can access it, or you can even upload it in the site. So if there are materials which you think will be useful for the class or for this, we can always share them so that they can be used by everyone. Okay, so see you all in the next class.